श्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनश्रण्वन्नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिदेवती धेनामवित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतो तैषवे नमः नमस्ते अत्तुधन्वने बाहुभ्यामुदते नमः यादयिष शिवतमा शिवम् बभूवते धनुः शिवा शरव्याय तवतया नो रुद्रमृणया याते रुद्रशिवा तनुरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ता विजाकशीः यामिषम् गिरिशम् तहस्ते विभश्यस्तवे शिवाम् गिरित्रयाङ्गुर्वाहिगुंसे पुरुषम् जगत् शिवेनवचसा त्वा गिरिसाच्छावरामसि यथा नः सर्वमिज्जगत यक्ष्वागुम् सुमना असत् अध्यवोचलदिवक्ता प्रथमो दैव्योऽभिषक् आयेगश्च सर्वा जम्बयन् सर्वास्तयातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रस्व मङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षश्रुता सहस्रशो वैशागुम् हेडयीमहे असव्यो वसर्पतिनीलग्रे गोविलोहितः उतैलम् गोपा अदृशन्नदृशन्नदहाज्ञः उतैलम् विश्वभूतानि च दृष्टो मृणयातिरः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करणमः प्रपञ्च धन्वनस्त्वमुभयोराद्योज्याम् याश्च ते हस्तैषव पराता भगवो वप अवतत्यधनुस्त्वम् सहस्राक्षरेषु ते निशीलशल्यानाम् मुखा शिवो नः सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उदा अनेशन्नस्येषव आवरस्य निषङ्गतिः याते हेतेर्मेष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्वया परिभ्य नमस्ते अस्त्वायुधाय नातनाय दृष्टवे उमाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अतो य इषुरिस्तवारे अस्मन्निदेहितम् नमस्ते अत्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे नान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनां पतये नमो नमः सस्मिञ्जराय त्विषेवने पथिनां पतये नमो नमो भव्यशाय विव्याधिनेनां पतये नमो नमो हरिकेशायो भवेतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तथा विधिक्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृताय औषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्थीनाम् पतये नमो नम कृत्सवीताय धावते सत्पराम् पतये नमः नमः सहमानाय निव्याधिना व्याधिनीनाम् पतये नमो नमः ककुमाय निषङ्गणे स्थेनानाम् पतये नमो नमो निषङ्गण इषधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो निषेरवे परिचरायारण्यानाम् पतये नमो नमः श्रीकाव्यभ्यो जिगागुं सद्भ्यो मुष्टताम् पतये नमो नमो शिवद्भ्यो न सञ्चरभ्य प्रकृन्दानाम् पतये नमो नम उष्णेशिरे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम तिष्ठद्भ्यो दावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नमः व्याधिनेभ्यो विविद्धन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपदेभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपदेभ्यश्च वो नमो नमो गणेभ्यो गणपदेभ्यश्च वो नमो नमो विरूपे विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः चुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रतेभ्यो रतपतेभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहेतृभ्यश्च वो नमो नमस्त क्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मादेभ्यश्च भो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च भो नमो नम इषुगद्भ्यो धन्वकद्भ्यश्च भो नमो नमो मृगयोभ्यश्वरेभ्यश्च भो नमो नम अश्वभ्यश्वमतेभ्यश्च भो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितकण्ठाय च नमः नभन्निरे च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिभिरिष्टाय च नमो मेरुष्टवाय चेश्वते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाचिराय च नमः शीघ्र्याय च शीघ्राय च नमः ऊर्ध्वाय च वस्वन्याय च नमः श्रोतस्याय च देव्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च अपगल्भाय च नमो जगन्याय च बुद्धयाय च नमः सोऽप्याय च प्रतिसज्ञाय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय च कल्याय च नमस्तोक्याय च अवसान्याय च नमो वन्याय च कक्ष्याय च नम श्रवाय च प्रतिश्रवाय च नम आशुषेणाय चाशुरताय च नमशूराय च वविन्दते च नमो वर्मिणे च वरोदिने च नमो भिल्मिणे च कवचिने च नमश्रुताय च श्रुतसेनाय च नमो दन्दुभ्याय च हरण्याय च नमो धृष्टवे च प्रवशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिवते च नमः तीक्ष्णेशवे चायुधिरे च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च मत्याय च नमः काट्याय च नेप्याय च नमः शोध्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः ऐत्र्याय च तप्याय च नमो वात्याय च रेष्मयाय च नमो वास्तव्याय च वास्तुमाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्ते च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च वयस्कराय च नमः शिवाय च शिवतराय च नमः तेत्याय च कोल्याय च नमः पाद्याय च वाद्याय च नमः प्रतरणाय चोत्तरणाय च नमः आद्याय च लाद्याय च नमः शष्प्याय च मेन्याय च नमः सिकत्याय च प्रभात्याय च नमः इरिण्याय च प्र ప్రమత్యాయ చ నమః హేగుం శిలాయ చ క్షయనాయ చ నమః కవర్ధినే చ పులస్తయే చ నమో గోష్ట్యాయ చ గృహ్యాయ చ నమః స్వల్ప్యాయ చ గేహ్యాయ చ నమః కాట్యాయ చ గవ్వరేష్టాయ చ నమో హృదయాయ చ నిరేష్ట్యాయ చ నమః పాగం సవ్యాయ చ రజస్యాయ చ నమః శుష్క్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చోలప్యాయ చ నమః ఊర్భ్యాయ చ సూర్యాయ చ నమః పర్ణ్యాయ చ పర్ణశద్యాయ చ నమో ఫగురమానాయ చ విద్ధతే చ నమః ఆఖిదతే చ ప్రఖిదతే చ నమో వక్షిదికేభ్యో దేవానాగుం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విచిన్వక్కేభ్యో నమ ఆనిర్హతేభ్యో నమ ఆమీవక్కేభ్యః ద్రాపే అంధసస్వసే దరిద్రన్నీలలోహితా ఏషాం పురుషాణాం ఏషాం పశూనాం మామే మాధో ఏషాం కించ నామవత్ యాతే రుద్ర శివా తనో శివా విశ్వా భేషజే శివా రుద్రస్య భేషజే తయానో మృడజీవసే ఇవాగం రుద్రాయ తమసే కమండినే క్షయభ్యాయ ప్రవరావహే మతిం యదాశ్వసద్విపదే చతుష్పదే విశ్వం పుష్టం రామే అస్మిన్ననాతురం ృణారోరుద్రోదోమయస్కలిక్షయేయాయ నమసా విదేవతే యచ్చంజయోశ్చ మనురాయజే పిదా తదశ్యామతవరుద్ర ప్రణీతౌ మానో మహాంతమృతమానో అర్భకం మానౌ క్షంతమృతమానౌ క్షితం మానో వదే పితరం మోత మాతరం ప్రియమానస్తనో రుద్రరేషః మానస్తోకే మానాయు శివానోకో శివానో అశ్వేశురేషః వేదాన్ మానో రుద్రవామితో వదే అవిష్మందో నమసా విదేవతే ఆరాతే గోగ ఉతమోరుషందే క్షయక్వేయాయ సుం నమస్సేతే అస్సో రక్షాచరో అది చ దేవ ప్రోగ్యతా చ నశర్మయచ్చ విమర్హాః త్రిశ్రుతం గస్త సనయువానం జగన్న భీమముపహత్వముగ్రం ప్రణాచరిత్రేయరుద్రస్తవాను అన్యంతే అస్మన్నివ పంతు సేనాః పరిణో రుద్రస్య హేతేర్విళక్త్వమరి త్వేషస్య దుర్మతిరగాయోః అవస్థిరా భగవద్భ్యస్తనుష్మీడుస్తోకాయ తనయాయ మృడయ మేడుష్టమశివతమశివో నః సుమనామవ పరమే వృక్ష ఆయుధన్నిలాయ కృత్తిం వసాన ఆచర విరాగం బిభ్రదాయ వికిరిద విలోహిత నమస్తే నాత్తు భగవః యాస్తే సహస్రగుం హేతయోన్యమస్మన్నివ పంతుతాః సహస్రాణి సహస్రదా బాహువోస్తవ హేతయః తాసామీశానో భగవ పరాచీనాముగాకృతే సహస్రాణి సహస్రశో యే రుద్రా అధిభూమ్యా తేషాగుం సహస్రయోజనే వర్ధన్వాని తన్మసే అస్మిన్ మహత్యర్నవేందరిక్షే భవ అది నీలగ్రీవాశ్రీకంఠా శర్వా అదః క్షమాచరాః నీలగ్రీవాశ్రీకంఠాదివగుం రుద్రా ఉపశ్రుతాః యే వృక్షేషు సస్మిన్ జరా నీలగ్రీవా విలోహితాః ये भूतानामधिपतयो विशिकासक्कपर्दिनः ये अन्येषु विभिद्यन्ति पात्रेषु विवतो जनान् ये पताम्बतिरक्षय ऐलमृदायव्युलः ये तीर्थानि प्रचलन्त शिकावन्तो निषङ्गिणः एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुंसहस्रयो जने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येन्दरिक्षे ये दिवि येषामन्नम् मातो वर्षविषमस्तेभ्यो दश प्राचे दश दक्षिणा दश प्रतिचे दशो देचे दशो नास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् दिश्वो यश्च नो द्वेष्टितम् भोजम् मे ददामि त्र्यम्बकय्यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनामृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु योषधीषु यो रुद्रो विश्व भुवनाविवेश तस्मै रुद्राय नमो अप्सु ये ते सहस्रमयुतम् पाशामृत्योर्मर्त्यायहन्तवे तान्यज्ञस्य मायया सर्वानवयजावहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो वाविशान्तः तेनान्येनाभ्याय स्वा नमो रुद्राय विश्वमे मृत्युर्मे पाहि तव सुहियस्वशस्वदन्वायो विश्वस्य क्षयति मे सजस्य यक्ष्वासौ मनसाय रुद्रम् नमो देवमसुरम् नमस्य अयम् मे हस्तो भगवान्
अयम् मे भगवत्तरः अयम् मे विश्वमे सयोऽयम् शिवाभिवर्षनः ॐ शान्ति शान्ति शान्तिः ॐ
श्रञ्च मे मयश्च मे प्रियम् च मे कामश्च मे कामश्च मे सोमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसो श्च मे सेरम् च मे लयश्च मृतम् च मे मृतम् च मे यक्ष्मम् च मे नाम यच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे अनमित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सोषा च मे सुधिनम् च मे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमेणागुम् राजा अप्येषा गृस्थपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्रा अथो कृष्णा अथो श्वेता अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्य श्रुतस्य हविषो यथा तत् सत्यम् यदमुह्यमस्य जम्भयो आददामि तदाहितक खण्फण्मृषे ॐ शान्ति शान्ति शान्तिः ॐ शन्नो मित्रः संवरुणः शन्नो भवत्पर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वमेव प्रत्यक्षम् ब्रह्म वदिष्यामि ऋतम् वदिष्यामि सत्यम् वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु माम् अवतु वक्तारम् ॐ शान्ति शान्ति शान्तिः शिक्षां व्याख्यास्यामः वर्णस्वरः मात्राबलम् सामसन्तानः इत्युक्तश्चेक्षाध्यायः सह नौ यशः सह नौ ब्रह्म वर्चसम् अथातः स गुम्भिताय उपनिषदम् व्याख्यास्यामः पञ्चस्वधिकरणेषु अधिलोकमधिज्योतिषमधिविद्यमधिप्रचमध्यात्मम् तामः स गुम्हिता इत्याचक्षते अथाधिलोकम् पृथिवी पूर्वरूपम् द्योरुत्तररूपम् आकाशः सन्धिः वायुः सन्धानम् इत्यधिलोकम् अथादिज्योतिषम् अग्निः पूर्वरूपम् आदित्य उत्तररूपम् आपः सन्धिः वैद्युतः सन्धानम् इत्यधिज्योतिषम् अथाधिविद्यम् आचार्यः पूर्वरूपम् अन्ते वास्युत्तररूपम् विद्या सन्धिः प्रवचनगुंसन्धानम् इत्यधिविद्यम् अथाधिप्रजम् मातापूर्वरूपम् पितोत्तररूपम् प्रजा सन्धिः प्रजननगुंसन्धानम् इत्यधिप्रजम् अथाध्यात्मम् अथराहनुः पूर्वरूपम् उत्तराहनुरुत्तररूपम् वाक्सन्धिः जिह्वासन्धानम् इत्यध्यात्मम् इति मामहासगुम्भिताः य एवमेता महासगुम्भिता व्याख्याता वेद सन्धीयते प्रजया पशुभिः ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन यश्चन्दसाभो विश्वरूपः छन्दोऽभ्योज्झमृतात् सम्बभूव समेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुवम् ब्रह्मण कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाय आवहन्ति वितन्वाना दुर्वाणा चेदमात्मनः वासागुंसि मम गावश्च अन्नपाने च सर्वदा ततो मे श्रियमावह लोमशाम् पशुभिः सह स्वाहा आमायन्तु ब्रह्मचारिणः स्वाहा विमायन्तु ब्रह्मचारिणः स्वाहा प्रमायन्तु ब्रह्मचारिणः स्वाहा दमायन्तु ब्रह्मचारिणः स्वाहा शमायन्तु ब्रह्मचारिणः स्वाहा यशोजने सा निःस्वाहा श्रेयान्वस्य सो सा निःस्वाहा तं त्वा भग प्रविशा निःस्वाहा समा भग प्रविश स्वाहा तस्मिन् सहस्रशाखे निभगाहं त्वयि मृजे स्वाहा यदापः प्रवदायन्ते यदामासा अहर्जलम् एवम् माम् ब्रह्मचारिणः धातरायन्तु सर्वतः स्वाहा प्रतिवेशोऽसि प्रमाभाहि प्रमापद्यस्वा भूर्भुवस्सुवरिति वा एतास्तिस्रो व्याहृतयः तासामुहस्मैताञ्चतुर्थे माहाचमस्य प्रवेदयते महयते तद्ब्रह्म स आत्मा अङ्गान्यन्या देवताः भूरिति वा अयम् लोकः भुव इत्यन्तरिक्षम् सुवरित्यसौ लोकः मह इत्यादित्यः आदित्येन वाप सर्वे लोका महीयन्ते भूरिति वा अग्निः भुवरिति वायुः सुवरित्यादित्यः मह इति चन्द्रमाः चन्द्रमसा वाव सर्वाणि ज्योतिगुंषि महीयन्ते भूरिति वा ऋचः भुव इति सामानि सुवरिति यजोगुंषि मह इति ब्रह्मा ब्रह्मणा वाव सर्वे वेदा महीयन्ते भूरिति वै प्राणः भुव इत्यपानः सुवरिति व्यानः मह इत्यन्नम् अन्नेन वाव सर्वे प्राणा महीयन्ते ताव एताश्चतस्रश्चतुर्धा चतस्रश्चतस्रो व्याहृतयः तायो वेदा स वेद ब्रह्म सर्वे स्मै देवा बलिमावहन्ति स य एषोऽन्तर्हृदय आकाशः तस्मिन्नयम् पुरुषो मनोमयः अमृतो हिरण्मयः अन्तरेण तालुके य एष स्तनैवावलम्बते सेन्द्रयोनिः यत्रासौ केशान्तो विवर्तते व्यपोह्य शीर्षकपाले भूरित्यग्नौ प्रतिष्ठते भुव इति वायौ सुवरित्यादित्ये मह इति ब्रह्मणे आप्नोति स्वराज्यम् आप्नोति मनसस्पतिम् वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिः एतत्ततो भवति आकाशशरीरम् ब्रह्म सत्यात्मप्राणारामम् मन आनन्दम् शान्तिसमृद्धममृतम् इति प्राचीनयोग्योपास्वा पृथिव्यन्तरिक्षम् द्योर्दिशो वान्तरदिशाः अग्निर्वायुरादित्यश्चन्द्रमानक्षत्राणि आप औषधयो वनस्पतय आकाश आत्मा इत्यधिभूतं अधाध्यात्मं प्राणो व्यानोपान उदानः समानः चक्षुश्रोत्रं मनोवाक्त्वक कर्ममागुंसग्रस्नावास्थिमज्ज एतदधिविधाय ऋषिरवोचत पाङ्गं वा इदगुं सर्वम् पाङ्क्तेनैव पाङ्क्तग् स्पृणोति ते ओमिति ब्रह्मा ओमितिदगुं सर्वम् ओमित्येतदनुकृतिहस्म वा अप्योश्रावयेत्या श्रावयन्ति ओमिति सामानि गायन्ति ओगुं सोमिति शस्त्राणि सगुं सन्ति ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति ओमिति ब्रह्मा प्रसौति ओमित्यग्निहोत्रमनुजानाति ओमिति ब्राह्मण प्रवक्षन्ना ब्रह्मोपाप्नवानीति ब्रह्मैवोपाप्नोति हृतं च स्वाध्याय प्रवचने च सत्यं च स्वाध्याय प्रवचने च तपश्च स्वाध्याय प्रवचने च नमश्च स्वाध्याय प्रवचने च शमश्च स्वाध्याय प्रवचने च अग्नयश्च स्वाध्याय प्रवचने च अग्निहोत्रं च स्वाध्याय प्रवचने च अतिथयश्च स्वाध्याय प्रवचने च मानुषं च स्वाध्याय प्रवचने च प्रजा च स्वाध्याय प्रवचने च प्रजनश्च स्वाध्याय प्रवचने च प्रजातिश्च स्वाध्याय प्रवचने च सत्यमिति सत्यवचाराधीतरः तप इति तपो नित्यः पौरुसृष्टिः स्वाध्याय प्रवचने एवेति नाको मौद्गल्यः तद्धितपस्तद्धितपः अहम् वृक्षस्य रेरिव कीर्तिः पृष्ठम् गिरेरिव ऊर्ध्वपवित्रो वाजिनेव स्वमृतमस्मि द्रविणगुंसवर्चसम् सुमेधामृतोक्षितः इति त्रिशङ्कोर्वेदानुवचनम् वेदमनुच्छाचार्योऽन्देवासिनमनुषास्ति सत्यम् वद धर्मम् चर स्वाध्यायान्मा प्रमदः आचार्याय प्रियम् धनमाहृत्य प्रजातन्तुम् मा व्यवच्छेत्से सत्यान्न प्रमदितव्यम् धर्मान्न प्रमदितव्यम् कुशलान्न प्रमदितव्यम् भूत्येन प्रमदितव्यम् स्वाध्याय प्रवचनाभ्यान्न प्रमदितव्यम् देवपितृकार्याभ्यान्न प्रमदितव्यम् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यान्यनवज्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्माकगुं सुचरितानि तानि त्वयोपास्यानि नो इतराणि ये केचास्मच्छ्रेयागुंसो ब्राह्मणाः एषाम् त्वयासनेन प्रश्वसितव्यम् श्रद्धया धेयम् अश्रद्धया धेयम् श्रिया धेयम् प्रिया धेयम् भिया धेयम् संविदा धेयम् अथ यदि ते कर्म विचिकित्सा वा वृत्त विचिकित्सा वा स्यात् ये तत्र ब्राह्मणा सम्मर्षिणः युक्ता आयुक्ताः अलोक्षा धर्मकामास्युः यथा ते तत्र वर्तेरन् तथा तत्र वर्तेधाः अधाभ्याख्यातेषु ये तत्र ब्राह्मणा सम्मर्षिणः युक्ता आयुक्ताः अलोक्षा धर्मकामा स्युः यथा ते तेषु वर्तेरन् तथा तेषु वर्तेधाः एष आदेशः एष उपदेशः एषा वेदोपनिषद् एतदनुशासनम् एवमुपासितव्यम् एवमुचैतदुपास्यम् शन्नो मित्रः शं वरुणः शन्नो भवत्पर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वमेव प्रत्यक्षम् ब्रह्मावादिशम् ऋतमवादिशम् सत्यमवादिशम् तन्मावेत् तद्वक्तारमावेत् आवेन्माम् आवेन्वक्तारम् शान्ति शान्ति शान्तिः ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवो तद्विष्णोः परमम् पदगुम् सदा पश्यन्ति सूरयः दिवेव चक्षुरातम् तद्विप्रासो विपन्यवो जाग्रवागम् सस्समिन्धते विष्णोर्य परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वः प्रचोदयात् नमस्हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः परेण नाकम् निहितम् गुहायाम् विभ्राजते तद्यतयो विशन्ति वेदान्तविज्ञान सुनिश्चितार्था सन्न्यासयोगा यदयः शुद्धसत्त्वाः ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे नरं विपापम् परमेष्मभूतं यत्पुण्डरीकम् पुरमध्यसद्ग्रस्तम् तत्रापि दहरम् गगनम् विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परः स महेश्वरः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीन्महेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः